सहस्रशेषा पुरुषः सहस्राक्षः सहस्रपाद सभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भोदयश्च भव्यम् भूतावृतत्तस्येषानः यदन्नेनाधिलोहति वेदावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्निमे त्रिपादोऽर्थमुदयत्पुरुषः पादोऽस्येहापात्पुनः ततो विश्वम् यद्गामत् साचनानशने अभि तस्मात् विराजायत विराजो अधिपूरुषः स जातो अध्यरिच्छत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमदन्वत वसन्तो अस्याधिराज्यम् ग्रीष्मयज्ञशरद्भिः सप्तास्यासन्परिधयः सप्तसविधकृताः देवायज्ञन्वाः अवध्यन् पुरुषम् वशन् तैयज्ञम् बर्हिः प्रोक्षन् पुरुषम् जागमकृतः तेन देवा अयजन्त साध्यायश्च ये तस्माद्विज्ञात् सर्वहुतः संहृतम् बृहदाज्यम् अशोकस्तायुस्तक्रे वायव्याने आरण्याम् ग्राम्याश्चये तस्माद्विज्ञात् सर्वहुतः ऋतः सामान्यजज्ञे छन्दागुंसिजज्ञे तस्माद् यजस्तस्मादजायत तस्मादश्वाजायन्त भयाजतः गावो हयज्ञे तस्मात् तस्माद्धाराजावयः यत्पुरुषङ्गतो कथिताव्यकल्पयन् मुखङ्गमस्य को बाहो काहोरोपादामुच्छेद् ब्राह्मणोऽस्य मुखमासीत् बाहोरारण्यकृतः पूरोतरस्य यद्वैश्यः कद्धातुम् शोद्रो अजायत चन्द्रमा मनसो जातः चक्षो शोद्य अजायत मुखालिङ्गश्चाभ्यश्च प्राणाद्वायुरजायत माभ्यासेदन्तरिक्षम् शेषाद्यौ समवर्तत कद्भाम्भोमिर्दिश श्रोत्रात् तथा लोकागम् न कल्पयन् वेदाहमेतम् पुरुषम् महान्तम् नित्यवर्णन्तमसस्तु काले सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवर्णयतास्ते ध्याता पुरस्ताद्यमुदा जहाद शक्रप्रभिभ्रान्मदिषश्चतस्रः तमेवम् विद्वानमृतैः भवति मान्यः पञ्चायनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमान्यासन् देहनाथम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अध्यः सम्भोदः पृथिवीरथाश्च विश्वकर्मणः समवर्धदाधि तस्य दृष्टा विदधद्रूपमेधे तत्पुरुषस्य विश्वमादानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्परस्तात् तमेवम् विद्वानमृत इह भवति नान्यम् पञ्चा विद्यते जनाय प्रजापतिश्चरधिगर्भे हन्तः अजायमानो बहुधा विजायते तस्य धीरा परिदानन्ति योनिम् मदीजीनाम् कृतमिच्छन्ति मेधसः यो देवे प्राणपति यो देवानाम् पुरोहितः भूर्भो यो देवेभ्यो जातः नमो ऋताय ब्राह्मये ऋतम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्यैवम् ब्राह्मणा विद्यात् तस्य देवाः संवसे ग्रीष्ठते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्रानिरूपम् अश्विनौ जातम् इष्टम् मनिधान अमुम् मनिधान सर्वम् मनिधान ॐ शान्तिः शान्तिः शान्तिः।